एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः निगदति दलित समुदायस्य सांविधानिकानाम् वैधानिकानाम् च अधिकाराणाम् संरक्षणाय संवर्धनाय च आगामिनः आर्थिक वर्षस्य नीति कार्यक्रमेषु आयव्ययके च दलित विकास प्राधिकरणस्य संस्थागत विकासस्य व्यवस्था विहितास्ति। जातीय भेदभाव स्पृश्यापृश्योन्मूलन राष्ट्रिय दिवसस्य सन्दर्भे ह्य काष्ठमण्डपे आयोजितायां स्पृश्यापृश्य मुक्त राष्ट्र घोषणायाः अवसरः क्रियान्वयनं समाभयाश्चेति विषयिण्याम् अन्तरक्रियायां प्रधानमन्त्री प्रचण्डः दलित समुदायस्य अधिकाराणां सुनिश्चयनाय वर्तमान सर्वकारः प्रतिबद्धोऽस्तीति अवोचत। प्रधानमन्त्री प्रचण्डः अमानवीयोत्पीडने अपहेलने च विद्यमानानां दलित समुदायानां सांविधानिकाधिकाराणां प्रभावकारिणे क्रियान्वयनाय राज्येन राज्यस्य निकायैश्च दायित्ववायवीर्भूत्वा प्रवर्तनीयम् इत्यत्र बलं प्रादात्। प्रतिनिधि सभाया ह्यस्तनोपवेशेऽपि आगामिनः आर्थिक वर्षस्य राजस्वस्य व्ययस्य च वार्षिकम् आनुमानिकम् आयव्ययकम् आधृत्य सामान्येन विमर्शनम् अचलत्। आयव्ययकम् आश्रित्य विहिते विमर्शने भागं गृह्णन्तः नेपाली कांग्रेस दलस्य सांसदः धनराज गुरूङ करस्य अतिरिक्तस्य भारस्य वर्धनेन विना करस्य परिधिं वर्धयित्वा राजस्वस्य वृद्धि कर्तुं शक्यते इति उक्तवान्। नेकपा एमाले दलस्य सांसदः रघुजी पन्त आयव्ययकम् क्रियान्वयने नेतुम् शक्यते नवेति विषयेण आयव्ययकम् कति प्रभावकारी वर्तते इति दर्शयति इति चर्चयन् आयव्ययकेन निर्धारितानि लक्ष्याणि उद्देश्यानि च पूरयितुम् बलम् प्रादात्। उपवेशे नेकपा माओवादी केन्द्रस्य सांसदः महेन्द्र राय यादवः नेपाली जनतायाः तीव्र विकासस्य आकांक्षायाः अभिलाषस्य च पूर्णत्वेन आनीतम् आयव्ययकम् यथार्थपरकम् सन्तुलितम् व्यावहारिकम् चास्तीति अगदत्। उपवेशे राष्ट्रपा दलस्य सांसदः अशोक कुमार चौधरी राप्रपा दलस्य प्रमुख सचेतक पदीयो ज्ञान बहादुर साई अन्य सत्तापक्षीयाः प्रतिपक्षी दलानाम् च सांसदाश्च आयव्ययकम् आश्रित्य स्वीय विचारान् प्रकटितवन्तः। प्रतिनिधिसभायाः अपरोपवेशः अद्य पूर्वाह्नस्य एकादशवादने पुनर्वसति। राष्ट्रिय सभायाः उपवेश्य आगामिनः आर्थिक वर्षस्य आयव्ययकम् आधृत्य विमर्शनम् सञ्चलदस्ति। राष्ट्रिय सभाया ह्यस्तनोपवेशस्य प्रारम्भे प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य पक्षतः संचार सूचना प्रविधि मन्त्री रेखा शर्मा नेपाल सर्वकारस्य गतार्थिक वर्षस्य वार्षिकम् प्रतिवेदनम् प्रस्तुतवती। उपवेशे आगामिनः आर्थिक वर्षस्य राजस्व व्ययोः वार्षिकानुमानम् आधृत्य कतिपय सांसदाः आयव्ययकस्य उद्देश्यस्य स्पष्टतया उल्लेखनात् अत्र सन्देहो नास्ति त्यतः क्रियान्वयन योग्यम् वर्तते इति अभासन्त। कतिपय सांसदाः आर्थिक सुधार वर्षत्वेन घोषणा कार्यक्रमे समीचीने सत्त्वेऽपि राजस्वस्य प्रश्रवण निवारण नीतेः अभावः कृषेः प्राथमिकतायामपि गतार्थिकस्य वर्षस्य अपेक्षया आयव्ययकस्य न्यूनत्वम् सांविधानिकायोगानां कृते आयव्ययके न्यूनता च वर्तते इति अगदन्। उपप्रधान गृहमन्त्री रवि लामिछाने भासते विद्यमानानाम् अधिनियमानाम् विद्यादीनाम् च कारणेन विपद व्यवस्थापनस्य कार्ये विलम्बनम् न विधेयम्। विपद संकट न्यूनीकरण व्यवस्थापन कार्यकारी समिते ह्यस्तनोपवेशे उपप्रधान गृहमन्त्री लामिछाने विधि नियमाः कार्य सम्पादनाय सहजतायै भवन्तीति भाषमाणः अधिकारस्य प्रत्यायोजनस्य अभावं प्रदर्श्य विपद व्यवस्थापनस्य कार्ये अवरोधः न करणीयः इत्यभाषत। गृहमन्त्री लामिछाने अस्य वर्षस्य वर्षाणाम् पूर्वमेव विपद व्यवस्थापन सम्बद्धाम् जटिलताम् नीति नियम कार्य विधिञ्च संशोधयितुम् निरदिशत। उपवेशे संघीय विषय सामान्य प्रशासन मन्त्री भानुभक्त जोशी विपदि स्वस्य मन्त्रालयस्य कार्यविधौ न्यूनताम् परिहर्तुम् प्रतिबद्धताम् अभिव्यनक। स्वास्थ्य जनसंख्या मन्त्री प्रदीप यादवः गृहमन्त्रालयस्य समन्वयेन यथाशीघ्रम् उपवेशम् उपविश्य स्वास्थ्य सम्बद्धानाम् कार्यक्रमाणाम् कृते पूर्वकार्याय प्रतिबद्धताम् अभिव्यनक। शङ्खुवा सभा जनपदे निर्माणाधीनायाः नवशत मेगावाट मित क्षमतायाः अरूण तृतीय जलविद्युत दायोजनायाः प्रमुख गुहायाः भेदन कार्यम् अद्य पूर्णताम् नेष्यति। प्रधानमन्त्री पुष्पकमला दाहाल प्रचण्डः गुहामार्गस्य अन्तिमद्वार भागस्य भेदनम् विधास्यति। आयोजनायाः 70% कार्यम् सम्पन्नम् अस्तीति आयोजनाया ज्ञापितम् वर्तते। कस्यापि अवरोधस्य अभावेन वर्षाभ्यन्तरे आयोजनायाः निर्माण कार्यम् समाप्स्यते इति आयोजनाया ज्ञापितम् वर्तते। रक्षा मन्त्री हरिप्रसाद उप्रेति रक्षा मन्त्रालयस्य अन्तर्गतै निकायै सञ्चालितानाम् विकास निर्माणस्य परियोजनानाम् लक्ष्यानुसारिण्यः प्रगतेः प्राप्त्यर्थम् अधिकम् श्रमम् विधातुम् निर्दिशति। रक्षा मन्त्रालये ह्य आयोजितायाः वर्तमानार्थिक वर्षस्य तृतीयया त्रैमासिक प्रगति समीक्षायाः मन्त्रालय स्तरीयायाः विकास समस्या समाधान समितेः उपवेशे रक्षामन्त्री उप्रेति काष्ठमण्डप तराई मधेस द्रुतमार्गस्य निर्माणम् यथासमयम् सम्पादयितुम् निरदिशत्। गण्डकी प्रदेशस्य समाधान वृत्त्युपार्जन मेला प्रारब्धा वर्तते। पोखरा नगरीयः पोखरा इभेन्ट सेन्टर नाम्नि स्थले प्रारब्धाम् मेलाम् श्रमवृत्ति सामाजिक सुरक्षा मन्त्री डोलप्रसाद अरियालः गण्डकी प्रदेशस्य मुख्यमन्त्री सुरेन्द्र राज पाण्डे च संयुक्त रूपेण उद्घाटयताम्। मेलायाम् विभिन्नाः 49 प्रदर्शन्यः स्थापिताः सन्ति। अद्ययावत् सञ्चल्यमानायाम् मेलायाम् समाधानस्य बह्वायामस्य पक्षस्य विषये संवादोऽपि जायमानो वर्तते। अधिकार दुरूपयोगानुसन्धानायोगेन ललितपुरस्य गोदावरी नगरपालिकायाः प्रमुख गजेन्द्र महर्जन इत्यनेन सहितानाम् चतुर्दशानाम् जनानाम् विरूद्धे भ्रष्टाचारस्य आरोपे आरोपपत्रम् पञ्जीकारितम् वर्तते। गोदावर्याः पाषाणचूर्णखण्डानाम् विक्रयणक्रमे सर्वकारेण निर्धारित मूल्यात् न्यूनमूल्येन विक्रीय भ्रष्टाचारो विहित इति आरोपे एतेषाम् विरूद्धे एकाब्जस्य चतस्रीणाम् कोटीनाम् 87 लक्षाणाम् च हानिवित्तम् अभियाच्य न्यायिक प्रकरणम् पञ्जीकारितम् अस्तीति अधिकार दुरूपयोगानुसन्धानायोगेन ज्ञापितम् वर्तते। नगर प्रमुख गजेन्द्र महर्जन उपप्रमुख मुना अधिकारी तात्कालिक प्रमुख प्रशासकीयाधिकृत विश्वराज मरासिनी लेखा शाखा प्रमुख यामलाल बेलवासे निर्माण संस्थाया संचालक मदन केसी निराकार पाषाणोद्योगस्य संचालक मधुसूदन डोटेल मच्छिन्द्रनाथ मल्टीप्रप्रोज प्राली संस्थायाः संचालक केदारनाथ तिमलसिना सजिलो पाषाणोद्योगस्य संचालक शशिराज साई वीरेन्द्र महर्जन पाषाणोद्योग संस्थाया संचालक वीरेन्द्र महर्जन चेतेषाम् विरूद्धे पञ्चसु भिन्नेषु शीर्षकेषु आरोपपत्रम् पञ्जीकारितम् अस्तीति आयोगस्य सहायक प्रवक्ता देवी प्रसाद थपलिया अज्ञापयत्। गुल्मी जनपदे जीपयानस्य दुर्घटनायाम् एको जना मृत दुर्घटनायाम् 7 जना आहताः सन्ति।